श्रीपराकुशपादाब्ज सुरभिकृतमौलये श्रीवत्सचिह्ननाथाय भाष्यकाराय मङ्गलम् नाथ पद्माक्षरामार्य पादपङ्कजसेविने सेव्याय सर्वयमिनायतिराजाय मङ्गलम् पूर्णाय पूर्णकरुणापात्र आयामिततेजसे मालाधर प्रियायास्तु यतिराजाय मङ्गलम् संसेव्य यामुनाचार्यं एकलव्योऽस्म्यहं गुरोः इत्येवं वदते नित्यं यतिराजाय मङ्गलम् श्रीकाञ्चीपूर्णविश्रोक्त रहस्यार्थविदे सदा देवराजप्रियायास्तु यतिराजाय मङ्गलम् श्रीमद्गोष्ठीपुरी पूर्ण दिव्याज्ञामुर्वरे मुदा श्लोकार्थं गृह्णते तस्मात् यतिराजाय मङ्गलम् कूरेश गुरुकानाथ दाशरथ्यादिदेशिकाः यच्छिष्या भवन्ति ते तस्मै यतिराजाय मङ्गलम् चरमश्लोकतत्त्वार्थं ज्ञात्वार्याज्ञा विलङ्घ्य च ददते तं स्वकीयेभ्यः यतिराजाय मङ्गलम् श्रीशैलपूर्णकृपया श्रीरामायणमर्थतः भक्त्या येन श्रुतम् तस्मै यतिराजाय मङ्गलम् शङ्करादिकुदृष्टीनां बाह्यानामिधनाय च श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गलम् कुर्वन् उपनिषद्भाष्यं जगद्रक्षां करोति यः दयाया परतन्त्राय भाष्यकाराय मङ्गलम् द्रमिडोपनिषद्व्याख्यां कलयेति कृपाफलात् चासते कुरु केशं तम् भाष्यकाराय मङ्गलम् गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च अवलोक्यागतायास्तु भाष्यकाराय मङ्गलम् परमाणुवृषावादिवादसंहारकारिणे तस्मै भगवते श्रीमत् भाष्यकाराय मङ्गलम् श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयं पित्रे सम्पत्सुतस्यापि भाष्यकाराय मङ्गलम् दत्त्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः परमप्रीतियुक्ताय भाष्यकाराय मङ्गलम् संन्यासं कुर्वते काञ्चामनन्तसरसीतटे वरदे न्यस्तभराय भाष्यकाराय मङ्गलम् श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वरः कान्तिमत्याम्रसूताय यतिराजाय मङ्गलम् शेषो वा सैन्यनाथो वा श्रीपतिर्वो अतिसात्विकैः पितर्क्याय महाप्रज्ञैः यतिराजाय मङ्गलम् ప్రకృష్ట గుణపూర్ణాయ ప్రాప్యాయ స్వాగ్నిసేనినాం ప్రపన్న సార్థవాగాయ యతిరాజాయ మంగళం. వేదాత్మక ప్రమాణేన సాత్వికైశ్చ ప్రమాతృభిః ప్రమేయేణ సహ శ్రీమాన్ వర్ధతామ్యతిశేఖరః.